मृतसञ्जीवननाटकस्य प्रथमः अङ्कः ततः प्रविशति यथार्हवेषः इन्द्रः। इदानीम् इन्द्रवेषधारी कश्चित् नटः रङ्गं प्रविशति इति अर्थः। यथा इन्द्रस्य योग्यः वेषः अस्ति तादृशं वेषं धृत्वा कश्चित् नटः रङ्गमञ्चं प्रविशति। सः इन्द्रवेषधारी पुरुषः आत्मगतं वदति प्रथमम्। आत्मगतम् इत्युक्ते स्वयं वदति, नाम यथा अन्ये श्रोतुं न शक्नुवन्ति तथा किन्तु नाटके प्रेक्षकाः श्रोतुं शक्नुवन्ति। आत्मगतम् इव चिरकालं सुखसुप्तस्य मे कोऽयमुत्पातः इति इन्द्रवेषधारी नटः पृच्छति। किं पृच्छति? चिरकालं नाम बहुदीर्घकालं, सुखसुप्तस्य सुखेन निद्रां कुर्वन् आसं तादृशस्य मे मम कोऽयम् उत्पातः। उत्पातः इत्युक्ते काचित् वेदना, व्यथा इति अर्थः। काचित् वेदना जाता, सुखेन अहं बहुकालं निद्रां कुर्वन् आसं तादृशस्य मम इदानीं काचित् वेदना जाता इति वाक्यस्य अर्थः। तदा पुनः इन्द्रः वदति, राक्षसाः रन्ध्रम् अन्विष्य पतन्ति त्रिदशालये कुलाये काकपाकानां मुलूका इव मत्सरात्। श्लोकम्। राक्षसारन्ध्रमन्विष्य,
राक्षसारन्ध्रमन्विष्य
पतन्ति त्रिदशालये,
पतन्ति त्रिदशालये
कुलाये काकपाकानां,
कुलाये काकपाकानां
मुलूका इव मत्सरात्,
मुलूका इव मत्सरात्।
श्लोकस्य पदविभागं कुर्मः। राक्षसाः, अत्र राक्षसाः इति पदं विसर्गस्य लोपः जातः। यदा विसर्गपूर्वम् आकारः अस्ति, विसर्गात् परं मृदुव्यञ्जनं स्वराक्षरं वा अस्ति, तदा विसर्गस्य लोपः जायते। अतः राक्षसा इति श्लोके अस्ति, यदा पदविभागं कुर्मः तदा राक्षसाः इति स्वीकरणीयं। राक्षसाः रन्ध्रम् अन्विष्य पतन्ति त्रिदशालये कुलाये काकपाकानां उलूकाः इव मत्सरात्। उलूकाः इति पदे अपि विद्यमानस्य विसर्गस्य लोपः जातः, कारणम् इकारः परवर्णः अस्ति। विसर्गात् परम् इकारः नाम स्वराक्षरं परवर्णम् अस्ति इति कारणेन विसर्गस्य लोपः जातः। श्लोकस्य अर्थं पश्यामः। राक्षसाः त्रिदशालये, त्रिदशालयः इत्यत्र देवानां देवालयः इति अर्थः। त्रिदशाः इति देवानाम् अपरं नाम अस्ति, तेषाम् आलयः नाम स्थानं, देवानां निवासस्थानम् अस्ति त्रिदशालयः। तत्र त्रिदशालये राक्षसाः रन्ध्रम् अन्विष्य पतन्ति। रन्ध्रं नाम छिद्रं,
द्वारं,
किमपि द्वारं। राक्षसाः कथञ्चित् कुत्रापि रन्ध्रम् अन्विष्य नाम अवकाशं प्राप्य, राक्षसाः अवकाशं प्राप्य त्रिदशालये पतन्ति इति इन्द्रः वदति। तद् कथमस्ति इत्युक्ते कुलाये काकपाकानां मुलूकाः इव मत्सरात्। उलूकाः नाम औल् इति अर्थः। उलूकाः मत्सरात् ईर्ष्या कारणात्, ईर्ष्यावशात् यथा काकपाकानां कुलाये पतन्ति। काकः वयं जानीमः, काक पाकः इत्युक्ते पोतः नाम शिशु, काकः इति अर्थः, बेबी इति अर्थः। काकपाकानां शिशुकाकानां कुलायः, कुलायः इत्युक्ते नीडः, नेस्ट् इति अर्थः। काकपाकानां कुलाये यथा उलूकाः ईर्ष्यावशात् पतन्ति तथा राक्षसाः त्रिदशालये पतन्ति इति श्लोकस्य अर्थः। एवं राक्षसाः रन्ध्रमन्विष्य पतन्ति त्रिदशालये कुलाये काकपाकानां मुलूका इव मत्सरात्। अत्रान्तरे प्रविशति बृहस्पतिः। इदानीं बृहस्पतिः रङ्गमञ्चं प्रविशति। इन्द्रः उत्थाय स्थित्वा आचार्य इन्द्रोऽयम् अभिवादये, अयम् इन्द्रः अभिवादये नाम अहं भवन्तं नमस्करोमि इति अर्थः. बृहस्पतिः वदति विजयस्व सुत्रामन्. सुत्रामा इति इन्द्रस्य अपरं नाम. आत्मन् शब्दवत् सुत्रामन् शब्दः नकारान्तः पुल्लिङ्गशब्दः. तस्य सम्बोधनप्रथमा अस्ति सुत्रामन् इति. हे सुत्रामन् विजयस्व, जयं प्राप्नोतु इति आशीर्वादं ददाति बृहस्पतिः. इन्द्रः वदति अवितथाः खलु भवदाशिषः इति. अर्थात् भवत् आशिषः, भवतः आशिषः, आशीः आशिषौ आशिषः इति शकारान्तः नपुंसकलिङ्गशब्दः. प्रथमाविभक्तिः बहुवचनम् आशिषः इति. अतः भवत् आशिषः अवितथाः खलु, भवतः आशीर्वादाः अवितथाः. वितथः इत्युक्ते व्यर्थः इति अर्थः, वेन् इति अर्थः. अवितथः इति विपरीतम् अर्थं बोधयति. न वितथः इति नाम न व्यर्थं गच्छन्ति. भवत् आशिषः, भवतः आशिषः व्यर्थं न प्राप्नुवन्ति किल इति इन्द्रः प्रतिवचनं ददाति. बृहस्पतिः वदति ननु किल पौरुषमपि प्रधानम् इति बृहस्पतिः वदति. अर्थात् मम आशिषा न अलं, मम केवलं मम आशिषः न पर्याप्ताः जयं प्राप्तुं, पौरुषमपि प्रधानमस्ति. पौरुषं नाम उद्यमः. उद्यमः अपि आवश्यकः, एफर्ट् अपि आवश्यकम् इति वदति. तदा इन्द्रः तावद् अलम् इति मन्ये. नाम इन्द्रः पुनः वदति भवतः आशिषा एव अलम् इति मन्ये, भवतः आशीर्वादाः एव पर्याप्ताः इति अहं मन्ये इति इन्द्रः उक्त्वा तस्य समर्थनं करोति अनेन श्लोकेन. अर्थो वाक्यानुवर्ती चेत्,
अर्थो वाक्यानुवर्ती चेत्,
वाक्यं धर्मानुगम्यदि,
वाक्यं धर्मानुगम्यदि,
धर्मो वेदानुवर्ती चेत्,
धर्मो वेदानुवर्ती चेत्,
तद्वाक्यानां पतिर्भवान्,
तद्वाक्यानां पतिर्भवान्.
श्लोकस्य पदविभागं कुर्मः. अर्थः वाक्यानुवर्ती चेत्, वाक्यं धर्मानुगम यदि, धर्मः वेदानुवर्ती चेत्, तद्वाक्यानां पतिः भवान्. सर्वदा अर्थः वाक्यम् अनुवर्तते. कथम्? यदा वयं वाक्यं वदामः तदनन्तरमेव तस्य अर्थस्य अवगमनं भवति. वाक्यम् अनुवर्तते, अतः अर्थः वाक्यानुवर्ती अस्ति. किन्तु वाक्यं कीदृशं भवेत् इत्युक्ते वाक्यं सर्वं धर्मानुगम भवति. नाम वाक्यं सर्वं धर्मम् अनुगच्छति. धर्मः कम् अनुवर्तते इत्युक्ते धर्मः वेदानुवर्ती अस्ति. वेदं, वेदवाक्यानि अनुवर्तते धर्मः. धर्मः वेदवाक्यानि अनुवर्तते. ये तादृशानां वाक्यानां, तद्वाक्यानां, तादृशानां वेदवाक्यानां पतिः भवान् एव इति इन्द्रः बृहस्पतिं प्रशंसति. तादृशानि वेदवाक्यानि, यानि वाक्यानि धर्मः अनुगच्छति, तादृशानां वेदवाक्यानां पतिः भवान् एव. अर्थात् वेदवाक्यानि सर्वाणि अपि भवन्तं
बृहस्पतिम्
अनुवर्तते इति अर्थः. अनुवर्तन्ते, वेदवाक्यानि सर्वाणि अपि भवन्तम् अनुवर्तन्ते इति कारणेन भवान् वेदवाक्यानां पतिः अस्ति. अतः भवतः आशीर्भिः अलम्, अहं जयं प्राप्तुं भवतः आशिषः एव पर्याप्ताः भवन्ति. ततोपि अधिकं मम पौरुषस्य आवश्यकता एव नास्ति, मम उद्यमस्य आवश्यकता एव न स्यात् इति इन्द्रः बृहस्पतिं प्रशंसां बृहस्पतेः प्रशंसां करोति. बृहस्पतिः भवतु सुत्रामन्, अपि विजिताः सर्वे तव अरयः? भवतु, तत्सर्वं भवान् मम प्रशंसां कृतवान् किल, तत् तथा आस्ताम्. अपि विजिताः सर्वे तव अरयः? तत्र पुस्तके सत्रामन् इति अस्ति, वस्तुतः सुत्रामन् इति भवेत्. सुत्रामा इति इन्द्रस्य नामान्तरम् अस्ति. विजिताः सर्वे तव अरयः, अपि इति अव्ययम् कदाचित् प्रश्नार्थकमपि बोधयति। ता अपि इति शब्दः अत्र प्रश्नार्थकः शब्दः अस्ति। सर्वे तव अरयः विजिताः, विजिताः वा इति पृच्छति बृहस्पतिः। अरिः अरि अरयः, इकारान्तपुल्लिङ्गश अरि शब्दः, शत्रुः इति अर्थः। अरिः इति पदस्य शत्रुः इति अर्थः। अतः तव शत्रवः नाम भवतः शत्रवः, इन्द्रस्य शत्रवः सर्वे विजिताः किल, नाम भवन्तः देवाः शत्रून् जितवन्तः किल इति पृच्छति। अत्र कर्मणि प्रयोगे अस्ति वाक्यं। सर्वे अरयः
विजिताः
त्वया नाम सुरेण देवेन विजिताः वा, अत्र कर्तृपदम् अस्माभिः योजनीयम् अस्ति। तस्य कर्तरिप्रयोगे तस्य वाक्यं चेत् सर्वान् अरीन् भवान् जितवान् वा। तदा इन्द्रः वदति सर्वे इति पृच्छति वा, केचिन् निहताः, केचित् पलायिताः, केचित् बन्दिग्राहं ग्राहिताः, केचन अरयः, केचन शत्रवः, निहताः। निहताः इत्युक्ते मारिताः, किल्ड्। केचित् पलायिताः, केचन राक्षसाः पलायिताः नाम एस्केप्ड्। केचित् बन्दिग्राहं ग्राहिताः, बन्दिग्राहं ग्राहिताः इत्युक्ते कारागृहे स्थापिताः, नाम प्रिजनर्स् इव स्वीकृताः, ग्राहिताः सन्ति इति। इदानीं बृहस्पतिः कथम् अस्मदनीके कथं, का कथा इति पृच्छति। अनीकम् इत्युक्ते सेना इति अर्थः। अनीकम् इति अकारान्तः नपुंसकलिङ्गशब्दः अस्ति। कथम् अस्मदनीके, अस्माकं सेनायां कथम् अस्ति स्थितिः इति पृच्छति। तदा इन्द्रः केचिन् निहताः, अस्माकम् अनीके अपि अस्माकं सेनायामपि केचन देवाः मारिताः, असुरैः मारिताः इति इन्द्रः उत्तरं ददाति। बृहस्पतिः अहोनु खलु कष्टं सर्वथा इदं सममेव ततस्ततः। अहोनु खलु कष्टम्, अहो कष्टम्, अस्माकम् अनीके अपि केचन मारिताः इति महत् कष्टं, सर्वथा इदं सममेव। समम् इत्युक्ते शत्रुपक्षे अपि केचन मारिताः भवन्ति, अस्माकं पक्षे अपि केचन मारिताः भवन्ति इति। युद्धे तु एतत् सर्वं सर्वदा भवत्येव। ततस्ततः तदनन्तरं का कथा इति पृच्छति इन्द्रः। जयन्तेन हि सेनाग्रम्,
जयन्तेन हि सेनाग्रम्,
भेजुषा बहवोरयः,
भेजुषा बहवोरयः,
अप्रधृष्य प्रतापेन,
अप्रधृष्य प्रतापेन,
प्रापितायमसाधनम्,
प्रापितायमसाधनम्।
पदविभागं कुर्मः। जयन्तेन हि सेनाग्रम्, भेजुषा बहवः अरयः, अप्रधृष्य प्रतापेन, प्रापिताः यमसाधनम्। जयन्तेन अरयः यमसाधनं प्रापिताः इति सामान्यं वाक्यम् अस्ति। जयन्तेन, जयन्तः कः?
इन्द्रस्य पुत्रः।
इन्द्रस्य पुत्रः जयन्तः। तेन बहवः अरयः, बहवः शत्रवः, प्रतिपक्षिणः बहवः, यमसाधनं, यमसाधनम् इत्युक्ते यमलोकः इति अर्थः। यमलोकं प्रापिताः सन्ति। प्रापिताः नाम यमलोकं यथा ते प्राप्नुवन्ति तथा जयन्तः कृतवान् इति अर्थः। कीदृशेन जयन्तेन इति, जयन्तेन इति तृतीया विभक्त्यन्तशब्दस्य विशेषणद्वयम् अस्ति, भेजुषा अप्रदृश्य प्रतापेन इति। भेजुषा नाम प्राप्तेन इति अर्थः। किं प्राप्तेन इत्युक्ते सेनाग्रं प्राप्तेन जयन्तेन, सेनाग्रं भेजुषा जयन्तेन। सेनाग्रः नाम सेनायाः अग्रभागे, अग्रभागं प्राप्तवान् अस्ति इन्द्रस्य पुत्रः जयन्तः। तेन अर्थात् यः सेनां नयति, अग्रेसरः, सेनायाः अग्रेसरः नाम फ्रंट पोर्शन् मध्ये स्थित्वा सेनां नयति, सः सेनाग्रः भवति। एवं सेनाग्रं प्राप्तेन, गतेन, जयन्तेन, पुनः कीदृशेन इत्युक्ते अप्रदृश्य प्रतापेन, तस्य प्रतापः नाम पराक्रमः, जयन्तस्य पराक्रमः कीदृशः आसीत् इत्युक्ते अप्रदृश्यप्रतापः आसीत् तस्य. अप्रदृश्य इत्युक्ते इन्विन्सिबल्, नाम जेतुम् अशक्यः प्रतापः तस्य आसीत् इति. अप्रदृश्यप्रतापेन सेनाग्रं भेजुषा जयन्तेन बहवः अरयः, बहवः शत्रवः यमसाधनं यमलोकं प्रापिताः
नीताः
नीताः इति श्लोकस्य अर्थः. बृहस्पतिः युज्यते तव पुत्रस्य इदं, बृहस्पतिः वदति तव पुत्रः अस्ति जयन्तः, अतः यथा भवतः पराक्रमादि गुणाः सन्ति तथा तव पुत्रस्य अपि तादृशाः गुणाः भवन्ति एव, अतः एतत् सर्वं युज्यते, एतत् सर्वं योग्यमेव तस्य इति वदति. इदानीं भटः प्रविशति नेपथ्ये अभिषेणनकलकलः. इदानीं कश्चित् भटः, भटः इत्युक्ते सैनिकः, कश्चित् सैनिकः रङ्गमञ्चं प्रविशति नेपथ्ये. नेपथ्यः इत्युक्ते ड्रेस्सिङ्ग् रूम्, यत्र वेषभूषणादिकं क्रियते तस्य प्रकोष्ठस्य नाम नेपथ्यम् इति उच्यते नाटके. नेपथ्ये अभिषेणनकलकलः, इदानीं केवलम् एकः शब्दः श्रूयते, सः शब्दः कीदृशः इत्युक्ते अभिषेणनकलकलः शब्दः श्रूयते. अभिषेणनम् इत्युक्ते आक्रमणम्, अटाकिङ्ग् इव एकः ध्वनिः श्रूयते. भटः ससम्भ्रमम् आगच्छति, वदति अत्याहितं महाराज, अत्याहितम्. अत्याहितम् इत्युक्ते
नष्टः,
नष्टम् इति अर्थः. इन्द्रः वदति उच्यतां, वदतु किमर्थम्, आम् किम् अभवत् इति वदतु. भटः ये त्वया पूर्वमहिताः,
ये त्वया पूर्वमहिताः,
विहिता विगतासवः,
विहिता विगतासवः,
तयेव साक्षादागत्य,
तयेव साक्षादागत्य,
क्षोभयन्त्यामरीं पुरीं,
क्षोभयन्त्यामरीं पुरीं.
ये त्वया पूर्वम् अहिताः विहिताः विगतासवः ते एव साक्षात् आगत्य क्षोभयन्ती आमरीं पुरीम्. अत्र सन्धिविषयाः बहवः सन्ति, अहिताः विहिताः इति पदयोः विसर्गस्य लोपः जातः अस्ति. अनन्तरं त एव इति पदस्य इति पदे ते एव इति यान्तवान्ता आदेशसन्धिः कृत्वा तदनन्तरं लोपशाकल्यस्य इति सूत्रेण यकारस्य लोपे कृते त एव इति तिष्ठति. वस्तुतः ते एव इति पदमेव सन्धिकारणेन त एव इति अभवत्. त एव साक्षात् आगत्य इत्यत्र जष्ट्वसन्धिः जातः अस्ति, तकारस्य स्थाने दकारः. साक्षात् आगत्य क्षोभयन्ती आमरीं पुरीं, क्षोभयन्ती आमरीं पुरीम् इत्यस्य यन् सन्धिः जातः अस्ति, इकारस्य स्थाने यकारः. क्षोभयन्ती आमरीं पुरीं तत्र तकारोत्तर इकारस्य यकारः जातः, क्षोभयन्ती आमरीं पुरीम्. एवं ये त्वया पूर्वम् अहिताः निहिताः विगतासवः ते एव साक्षात् आगत्य क्षोभयन्ती आमरीं पुरीं. ये अहिताः इति पदस्य शत्रवः इति अर्थः. ये शत्रवः त्वया नाम इन्द्रेण पूर्वं विगतासवः विहिताः, विगत असवः कृताः. असुः इत्युक्ते प्राणः इति अर्थः, असवः इति असुः असु, असवः प्राणाः इति. विगतासवः इत्युक्ते विगताः असवः येभ्यः ते इत्युक्ते मरणं प्रापिताः इति अर्थः. त्वया ये शत्रवः मरणं विगतप्राणाः कृताः, विहिताः इत्युक्ते कृताः. ते अहिताः नाम ते शत्रवः इदानीं साक्षात् आगत्य आमरीं पुरीं क्षोभयन्ति. आमरी पुरी इत्युक्ते अमर अमराणाम् इयम् आमरी इत्युक्ते देवानां सम्बन्धिनी आमरी भवति, अमराणां सम्बन्धिनी आमरी. आमरीपुरी इत्युक्ते अमरावती इति अर्थः. अमरावतीम् आगत्य क्षोभयन्ति नाम पीडयन्ति, अजिटेशन् इति अर्थः वस्तुतः. क्षोभयन्ति इति पदस्य अत्र पीडयन्ति नाम पूर्वम् इन्द्रेण मारिताः राक्षसाः इदानीं साक्षात् आगत्य अमरावतीं पीडयन्ति इति श्लोकस्य सामान्य अर्थः. इन्द्रः वदति न केवलम् अत्याहितम् अत्याश्चर्यं च. तदा इन्द्रः इन्द्रस्य महत् आश्चर्यं जायते. कारणं ये विगतप्राणाः राक्षसाः पुनः आगत्य अमरावतीं पीडयन्ति चेत् एतत् कथं साध्यम् एतत् इति इन्द्रस्य महत् आश्चर्यम्. अतः न केवलम् अत्याहितम् एतत् न केवलं
नष्टः
न केवलं नष्टम् अति आश्चर्यकरः विषयः अपि अस्ति. तेन हि मद्वचनात् आदिश्यन्तां सर्वे दुर्गरक्षा अधिकृताः सेनान्यः. मद्वचनात् मम वचनात् सर्वे दुर्गरक्षाधिकृताः. अस्माकं दुर्गाः फोर्ट् इति वदामः किल, अत्र सर्वदा दुर्गाः नगरस्य बहिर्भागे भागे भवन्ति. सो एतेषां दुर्गाणां रक्षणे नियुक्ताः सेनान्यः, सेनानीः सेनान्यौ सेनान्यः इति विशेषशब्दः ईकारान्तः पुल्लिङ्गशब्दः. सेनानी शब्दः सेनानीः सेनान्यौ सेनान्यः इत्युक्ते सेनापतयः, सेनापति तस्य बहुवचनं सेनापतयः. अत्र दुर्गाणां रक्षणे नियुक्ताः ये सेनापतयः ते सर्वे आदिश्यन्ताम् तत्र विद्यमानान् सर्वान् सेनापतीन् आदिशतु. किम् इति आदेशः इत्युक्ते अप्रमत्तैः भवितव्यम् इति. अप्रमत्तैः भवितव्यम्, अप्रमत्तः इत्युक्ते जागरूकः इति अर्थः. अतः तैः सर्वैः सेनापतिभिः जागरूकैः भवितव्यं नाम अटेण्टिव् भवितव्यं तैः इति अर्थः. इदानीं भटः यथा आज्ञापयति देवः इति निष्क्रान्तः. यथा भवान् आज्ञापयति तथा अहं करोमि इति उक्त्वा भटः तस्मात् रङ्गमञ्चात् बहिर्गच्छति. इदानीम् इन्द्रः गुरुब्रह्मन् किम् एतद् आपतितं निगता समागता इति कथम् एतत्. इन्द्रस्य आश्चर्यं न किञ्चित् वेदना अपि अस्ति. किम् एतद् आपतितं, किम् अभवत् अत्र, किं प्रचलति अत्र, निहताः समागताः इति कथम् एतत् कथं साध्यम्, ये मरणं प्राप्तवन्तः ते सर्वे पुनः आगच्छन्ति इति कथं साध्यम् इति इन्द्रः पृच्छति. तदा बृहस्पतिः समाधिगतोऽहं ज्ञास्यामि. अत्र पुस्तके समाधिगतोऽहं ज्ञास्यामि इति अस्ति, तद्वस्तुतः समाधिगतोऽहं ज्ञास्यामि इत्येव अर्थः इत्येव भवेत्. अस्य अर्थः अहं समाधिस्थितिं प्राप्य किं कारणम् इति ज्ञात्वा वदिष्यामि इति अर्थः. एवं समाधिं नाटयित्वा ज्ञातं ज्ञातं कारणम् अहं ज्ञातवान् इति बृहस्पति वदति. इन्द्रः कथम् इव, किं कारणम् इति पृच्छति बृहस्पतिः. कथं नोपपद्यते सर्वथेदं सर्वथेदं शुक्राचार्यस्य दर्शनं. सर्वथा इदं शुक्राचार्यस्य दर्शनं कथं न उपपद्यते, कथं न सम्भवेत् एतत्. कारणं सर्वथा बै आल् मीन्स् इति अर्थः. सर्वथा नाम एतत् सर्वमपि शुक्राचार्यस्य दर्शनं. शुक्राचार्यः असुराणां गुरुः अस्ति शुक्राचार्यः, तस्य दर्शनं नाम तस्य कार्यम् एतत् सर्वम् इति. कथम् एकाक्षिणः इति इन्द्रः पृच्छति. एकाक्षी इति शब्दः शुक्राचार्यस्य एकाक्षी इति अपि नाम अस्ति. तस्य कारणं भवती जानाति चेत् वदतु.
पूर्वं वामनावतारे यदा बलिः दानं दातुं प्रवर्तते तदा शुक्राचार्यः तन्मतम् अनुसरति सः. वामनः विष्णुः एव वामनरूपः जातस्सन् अत्र आगत्य बलिं नाशयितुमेव एतत् सर्वं करोति इति इति ज्ञात्वा शुक्राचार्यः तं निवारयितुं प्रयतते, किन्तु बलिः अहं सर्वदा सर्वदा ददामि इति उक्त्वा दानं दातुं प्रभवति। तदा शुक्राचार्यः अन्यं गतिम् अजानन् भ्रमररूपं धृत्वा कमण्डलोः बलिनः कमण्डलोः रन्ध्रं प्राप्य तत्र स्थगयति स्म,
जलस्य
प्रभावं स्थगयति स्म। तदा वामनः दर्भं कुशं कुशाग्रं स्वीकृत्य कमण्डलोः रन्ध्रे प्रवेश्य तुदति। तदा शुक्राचार्यः स्वस्य रूपं प्राप्य तस्य एकाक्षी भग्नं भवति, अथवा सः काणः जातः,
एवं
तस्य एकाक्षी इति नाम प्राप्तम्।
सो एतस्मात् कारणात् शुक्राचार्यस्य एकाक्षी इति नामान्तरं सिद्धं जातं तस्य। सो एकाक्षी इति शब्दस्य षष्टिविभक्ति एकवचनम् अस्ति एकाक्षिणः, नकारान्तः पुल्लिङ्गः एकाक्षिन् शब्दः भवति। कथम् एकाक्षिणः, कथम् एकाक्षिणः दर्शनं नाम इन्द्रस्य आश्चर्यं, शुक्राचार्यस्य कार्यं वा इदम् इति पृच्छति बृहस्पतिः। सहस्राक्ष नायम् एकाक्षी यदि मनुते लोकसंहारक अक्षि मनसैव मन्त्रयित्वा प्रयोगं नेष्यति खलु। हे सहस्राक्ष, सहस्राक्ष इति इन्द्रस्य नामान्तरम् अस्ति, तस्य सहस्र अक्षीणि सन्ति इति ज्ञायते, अतः सहस्राक्षः इति इन्द्रस्य नाम। हे सहस्राक्ष न अयम् एकाक्षी, एषः शुक्राचार्यः केवलम् एकाक्षी नास्ति, यदि मनुते यदि सः मनसि चिन्तयति चेत् लोकसंहारक अक्षी अस्ति, लोकान् संहर्तुम् अपि समर्थः अस्ति, लोकसंहारक अक्षी अस्ति सः शुक्राचार्यः। मनसा एव मन्त्रयित्वा केवलं मनसा मन्त्रं जप्त्वा प्रयोगं नेष्यति खलु, कार्यं साधयति किल सः, केवलं मन्त्रं मनसा एव सः उच्चरति किन्तु कार्यं साधयति कथञ्चित् इति बृहस्पतिः वदति। कथम् इव इन्द्रस्य जिज्ञासा जायते, कथम् इति मृतसञ्जीवन्या मृतसञ्जीवनी इति मन्त्रेण इति वदति इन्द्रः। मृतसञ्जीवनी इति पदं श्रुत्वा प्रायेण तद् काचित् औषधिः इति मत्वा पुनः पृच्छति लतया उत पत्रेण, मृतसञ्जीवनी इति लता काचित् अस्ति तया मृतसञ्जीविनी लतया वा, नो चेत् मृतसञ्जीविनी पत्रेण पर्णेन वा इति पृच्छति इन्द्रः। तदा बृहस्पतिः न लता न च पत्रं वा न किञ्चिदपि पार्थिवं, बीजाक्षराणि संयोज्य मन्त्रः कश्चित् उद्धृतः। एषा मृतसञ्जीवनी लता नास्ति, पत्रमपि नास्ति, न किञ्चिदपि पार्थिवं, पृथिव्यां भवं पार्थिवं, यत् पृथिव्यां जायते तत्सर्वं पार्थिवम् इति उच्यते, किन्तु एषा मृतसञ्जीवनी पार्थिवमपि नास्ति, किञ्चित् पृथिव्यां न अन्तर्भवति। बीजाक्षराणि संयोज्य कानिचन बीजाक्षराणि योजयित्वा कश्चित् मन्त्रः उद्धृतः, नाम शुक्राचार्येण कश्चित् मन्त्रः उक्तः अस्ति। ततस्ततः इन्द्रः बृहस्पतिः सः खलु तन्मन्त्रबलेन विहतान् दितिसुतान् सर्वान् पुनः जीवयति। सः शुक्राचार्यः तद्मन्त्रबलेन सञ्जीवनी मन्त्रबलेन निहतान् नाम मारितान् दितिसुताः, दितिसुताः नाम
असुराः
इति, दितिसुतान् दितेः सुतः, दिति इति तेषां मातुः नाम दितिः, दितिसुतः, सुतः इत्युक्ते पुत्रः इति अर्थः, दितिसुतान् सर्वान् असुरान् सर्वान् पुनः जीवयति इन्द्रः। अहो भत संशयापतितं मे स्वर्गराज्यम्, इन्द्रस्य स्वर्गराज्यम् इदानीं संशये आपतितम् इति तस्य भीतिः, तस्य विलापः अपि, यदि तस्य स्वर्गराज्यं संशयापतितम् इत्युक्ते यदि राक्षसाः पुनः अमरावतीं अमरावत्याः आक्रमणं कुर्वन्ति चेत् मम पदवीमपि ते प्राप्नुयुः, अतः मम पदव्याः नष्टं भवति चेत् मम स्वर्गराज्यं संशये पतितं भविष्यति इति इन्द्रस्य विलापः. इदानीं भटः पुनः प्रविशति, कश्चित् भटः पुनः प्रविशति. सः भटः विजयो महाराजस्य, महाराजस्य विजयः भवतु इति प्रणमति. इन्द्रः कथम् इव, कथं मे विजयः भवितुम् अर्हति इति इन्द्रः पृच्छति. कथमपि मम विजयः इदानीं न दृश्यते, दृष्टिगोचरे एव मम विजयः नास्ति. कथमिव इति इन्द्रः पृच्छति. भटः हता बहवो राक्षसाः शिष्टाः कान्दिशीकाः. बहवः राक्षसाः हताः नाम बहवः राक्षसाः मारिताः. हताः नाम हन्धातोः इक्तप्रत्ययः हतः. हताः बहवः राक्षसाः मारिताः. शिष्टाः अवशिष्टाः, अवशिष्टाः कान्दिशीकाः. कान्दिशीक इत्युक्ते पलायिताः, भयेन भयद्रुताः, भयेन धाविताः इति अर्थः. इन्द्रः कथम् अस्मदनीके, अस्माकम् अनीके कथं स्थितिः कीदृशी अस्ति, नाम अस्माकं सेनायां स्थितिः कथम् अस्ति इति पृच्छति. केचन निहताः, केचन अस्माकं पक्षे अपि केचन मारिताः. इन्द्रः विजयवार्ता श्रवणेन मृतम् अपि मे भयं, शुक्रवार्ता श्रवणेन पुनः जीवतीव. आचार्य चिन्त्यताम् उपायः. विजयवार्ता श्रवणेन इदानीं भटः बहवः राक्षसाः हताः इति विजयवार्तां श्रावितवान्, अतः विजयवार्ता श्रवणेन मम भयं मृतम् आसीत्. अहं नाम मम भयम् अपगच्छति स्म, किन्तु शुक्रवार्ताश्रवणेन पुनः शुक्राचार्यः एतान् निहतान् राक्षसान् मृतसञ्जीविन्या जीवति, जीवयति इति वार्तां श्रुत्वा मृतं मे भयं नाम अपगतं मे भयं पुनः जीवयति इव अहं भयम् अनुभवामि इति इन्द्रः वदति. आचार्य चिन्त्यताम् उपायः, कश्चित् उपायः कृपया चिन्त्यतां, भवान् एकम् उपायं चिन्तयतु इति इन्द्रः वदति. चिन्तनीयः एव, अवश्यं चिन्तयामि इति बृहस्पतिः वदति. इदानीं सर्वे निष्क्रान्ताः, सर्वे रङ्गमञ्चात् बहिर्गच्छन्ति इति. अस्मिन् अत्र प्रथमः अङ्कः समाप्यते. अस्मिन् अङ्के मुख्य अंशः अस्ति बृहस्पतेः वाक्यं, सहस्राक्ष नायम् एकाक्षि यदि मनुते लोकसंहारकाक्षि. नायम् एकाक्षि यदि मनुते लोकसंहारकाक्षि इति वाक्यं ससन्दर्भं व्याख्यातुं बहुधा प्रश्नपत्रे परीक्षासु पृच्छ्यते इदं वाक्यम्. अतः एतस्य ससन्दर्भं व्याख्या कथं करणीया इति भवन्तः कृपया अभ्यासं कुर्वन्तु. एतत् वाक्यं कृपया किमपि चिह्नेन अङ्कयन्तु. एवं कथम् एकाक्षिणः इति वाक्यमपि ससन्दर्भव्याख्यार्थं पृच्छन्ति. कथम् एकाक्षिणः, नायम् एकाक्षि यदि मनुते लोकसंहारकाक्षि. अनन्तरं विजयवार्ताश्रवणेन मृतमपि मे भयं, शुक्रवार्ताश्रवणेन पुनर्जीवति इव इति वाक्यमपि ससन्दर्भ व्याख्यानं कर्तुं परीक्षासु बहुधा पृच्छ्यते इति उक्त्वा अत्र प्रथम अङ्कः समाप्यते. धन्यवादः.